इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधिझा। अथ वार्ताः। केन्द्रीय मन्त्रिमण्डलेन विमानन परिवहन मार्ग आधारभूत संरचना क्षेत्रेषु महत्वपूर्णाः योजनाः अनुमोदिताः। पश्चिम एशिया संकट कारणेन वर्धितेषु इंधन मूल्येषु भारतीय विमान सेवानां कृते विमान इंधनस्य अर्थात एटीएफ मूल्यस्य स्थिरीकरणार्थं तैल विपणन समवायेभ्यः सहस्रकोटि रूप्यकाणां आयव्यय सहायतां प्रदातुं प्रशासनं निर्णयं कृतवत्। सूचना प्रसारण मंत्री अश्विनी वैष्णव अवोचत् यत् एतेन विमानन क्षेत्र संबद्धाः प्रायः 77 लाख आजीविकाः सुरक्षिताः भविष्यन्ति। सहायता योजनेयं 36 मास पर्यन्तं प्रवर्तयिष्यते। मंत्रिमण्डलेन दिल्ली निकटवर्ति क्षेत्रे वायु प्रदूषण नियन्त्रणार्थमपि एकस्याः योजनायाः अनुमोदनं कृतम्। द्विवर्षीय योजनायां प्रायः 2 लाख ट्रक यानानि 16,000 बस यानानि च प्रतिष्ठापयितुं लक्ष्यं निर्धारितम्। मंत्रिमण्डलीय समित्या ओडिशा राज्ये रामेश्वरात् पारादी पर्यन्तं 63,100 किलोमीटर परिमितस्य नूतन तटीय राजमार्ग निर्माणाय अनुमतिः प्रदत्ता। एतदतिरिच्य समित्या बिहार राज्ये राष्ट्रिय राजमार्गयोः 31 तथा 31,200 च इत्येतयोः खगड़िया पूर्णिया खण्डस्य चतुर्पथ परियोजनापि अनुमोदिता। प्रधानमंत्री नरेन्द्र मोदी अद्य नवदिल्ल्यां वेनेजुएला देशस्य राष्ट्रपतिना डेल्जी रोड्रिगेज इत्यनेन सह द्विपक्षीय वार्तां विधास्यति। अस्याम् उच्चस्तरीय चर्चायां भारत वेनेजुएला संबंधानां अशेषेषु पक्षेषु मंथनं भविष्यति। सहैव ऊर्जा सुरक्षा व्यापार निवेश स्वास्थ्य सेवा परिवहनम् नवीकरणीय ऊर्जा इत्यादिषु क्षेत्रेषु भविष्ये सहयोगस्य नूतन मार्गाणां अन्वेषणं च भविष्यति। रोड्रिगेज वर्यः भारतदेशस्य 5-दिवसीय यात्रायां ह्यः नवदिल्लीं समागच्छत्। प्रधानमंत्री नरेन्द्र मोदी अवोचत् यत् कृत्स्ने हि विश्वे योगस्य लोकप्रियता तीव्रगत्या वर्धमाना वर्तते। एकस्मिन् सामाजिक अन्तर्जालीय पटले एकेन सन्देशेन प्रधानमन्त्रिणा संसूचितं यत् अद्य प्रथम वैश्विक योगासन प्रतियोगितायां सह आभासीय माध्यमेन सम्मिलितो भविष्यति। केन्द्रीय गृहमन्त्री अमित शाहः अद्य सायंकाले त्रिपुरा राज्यस्य 2-दिवसीय यात्रायां अगरतला नगरं प्रति एष्यति। यात्रावधौ श्री शाहः पुष्पवन्त पैलेस इत्यस्य शिलान्यास समारोहे भागं ग्रहीष्यति। लंकामुरा स्थिते सीमा सुरक्षा बलस्य निरीक्षणं च करिष्यति। सहैव राज्य केन्द्रीय सुरक्षा अधिकारिभिः सह एकं उच्चस्तरीय उपवेशनं करिष्यति। गृहमन्त्रिणः यात्रां वीक्ष्य त्रिपुरा प्रशासनेनापि एका उच्चस्तरीया प्राशासनिक सुरक्षा सीमा सभा आयोजिता। राष्ट्रिय राजधान्यां दिल्ल्यां मालवीय नगरस्य एकस्मिन् विश्रान्ति निलये भीषणाग्निकाण्डे 21 जनाः मृत्युमुपगताः, अनेके च जनाः व्रणिताः अभवन्। दक्षिण दिल्ल्यारक्षि विभागस्य उपायुक्तः अनन्त मित्तलः अवोचत् यत् अग्निशमन विभागस्य 8 वाहनैः सह अग्निः नियन्त्रितः। आरक्षिणाम् अग्निशमनस्य तथा अन्य आपत्कालिक सेवानां संयुक्त प्रयत्नैः 40 जनाः सुरक्षित रूपेण उद्धृताः, चिकित्सोपचारार्थं च चिकित्सालयेषु प्रेषिताः। प्रधानमंत्री नरेन्द्र मोदी घटनामुद्दिश्य गहनं दुःखं व्यक्तीकृतवान्। राष्ट्रपतिः द्रौपदी मुर्मुः, उपराष्ट्रपतिः सीपी राधाकृष्णन्, गृहमन्त्री अमित शाहः तथा दिल्ली राज्यस्य मुख्यमन्त्री रेखा गुप्ता अपि अस्मिन् दुःखदे घटनाक्रमे शोकं प्रकटितवन्तः। सर्वैः नेतृभिः शोक संतप्त परिवारान् प्रति गहन संवेदना व्यक्तीकृता। इति वार्ताः।